Page 46
अष्टमः पाठः सूक्तिस्तवकः पृष्ठसङ्ख्या 46 से पृष्ठसङ्ख्या 50 तक। बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः रवे रविषये किं न प्रदीपस्य प्रकाशनम्। यह प्रथमपद्य है। पुस्तके पठितः पाठः जीवने नैव साधितः किं भवेत् तेन पाठेन जीवने यो न सार्थकः। द्वितीयपद्य प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता। तृतीयं पद्यम् गच्छन् पिपीलको याति योजनानां शतान्यपि अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति। चतुर्थं पद्यम् काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः वसन्तसमये प्राप्ते काकः काकः पिकः पिकः। पञ्चमं पद्यम्।